महोदय नमस्कार, सरला अस्मि।
नमस्कार भगिनि।
इदानीं गृहं प्राप्तं वा? इदानीं शृणोमि।
अस्तु भगिनि, अद्य भागं वोढुं शक्यते वा न वा? भवतु, अस्तु आरभामि। श्रीगुरुभ्यो नमः, सर्वेभ्यो नमस्कारः, सर्वेषां कारकचिन्तनवर्गे सुस्वागतम्। तर्हि विभक्तिविधायकसूत्राणि आरब्धानि। तत्र सप्तमी पञ्चम्यौ कारकमध्ये इति सूत्रं सम्पूर्णसूत्रमस्ति। कालाध्वनाभ्यां कारकमध्ये सप्तमी पञ्चम्यौ इति सूत्रम्। अद्य भुक्त्वा अयं द्वयहे द्व्यहाद्वा भोक्ता, भोक्ता इति लुट्लकारः। तर्हि इदानीं यद्यपि अत्र देवदत्तः इति एकः एकमेव कारकमस्ति, तथापि तत्र शक्तिकृतभेदः वर्तते एकस्मिन् कारके इति कृत्वा अस्य सूत्रस्य प्रसक्तिः भवति इति उक्तम्। तत्र इहस्तः अयं क्रोशे क्रोशाद्वा लक्ष्यं विध्येत् इत्यपि उदाहरणम्। एतदुदाहरणं सिद्धान्तकौमुद्याम् आसीत्। अस्तु, अत्र काशिकायां किम् उदाहरणमस्ति इति चेत्, इहस्तः अयं विश्वासः क्रोशे लक्ष्यं विदद् विध्यति इति, क्रोशात् लक्ष्यं विध्यति, कर्तृकर्मणोः कारकयोः इति आरभ्य अद्य पठनीयमस्ति। ओ, हेमा भगिनी आगतवती। नमस्कारः भगिनि।
नमस्ते महोदय।
अद्य पठितुं शक्यते किं? वयं लाफिङ्ग् इस् यस्टर्डे हेमा भगिनी सेण्ट् मी अ मेसेज् एट् 5:30 सेयिङ्ग् दट् टुडे ऐ वोण्ट् बि एबल् टु मेक् इट् टु द क्लास्, इवन् ऐ गाट् कन्फ्यूस्ड्।
अहं किञ्चित् समयानन्तरं पठिष्यामि।
भवतु, अस्तु। तर्हि लीना भगिनी कृपया कर्तृकर्मणोः कारकयोः।
आं महोदय, कर्तृकर्मणोः कारकयोः कर्मापदानयोः कर्माधिकरणयोः वा मध्ये क्रोशः संख्यातानुदेशः न भवति अस्वरितत्वात्। कर्तृकर्मणोः कारकयोः, अस्तु। तर्हि इहस्तः अयम् इश्वासः क्रोशे लक्ष्यं विध्यति, अस्मिन् उदाहरणस्य अत्र सन्दर्भः दृश्यते। अयम् इति अत्र कर्ता वर्तते, लक्ष्यम् इति कर्म अस्ति। तर्हि तयोः कारकयोः तथा च कर्म अपादानम् अस्ति, इहस्थः इति अपादानः तथा च लक्ष्यम् इति कर्म, तयोः मध्ये कर्म अधिकरण, इहस्थ इति अधिकरण खलु, अपादान इति किं
न अधिकरणमस्ति चेत् इहस्थः इति कस्य विभक्तिः का तस्य?
अपादानमिति दृश्यते, परन्तु इह इति तु अधिकरणं खलु, इहस्थः न
अधिकरणम् इति क्रोशे इति अस्ति खलु, लक्ष्य क्रोशे
सत्यं तदधिकरणं कर्म अधिकरणयोः वा मध्ये क्रोशः, अस्तु। तयोः
तर्हि अत्र इहस्तः इत्यस्य महत्त्वं नास्ति।
सत्यं,
लक्ष्यं विध्यति अत्र, विश्वासः विध्यति खलु, लक्ष्यं विध्यति, लक्ष्यम् इति कर्म, क्रोश इति अधिकरणं, क्रोशे इति अस्ति। तर्हि तयोः मध्ये न
इह अपि च तत्र लक्ष्यं मध्ये क्रोश अस्ति तस्य सप्तमी इति चिन्तयामि.
सत्यं सत्यं, तत्र क्रोशे इति सप्तमी सत्यं. तर्हि अत्र कर्तृकर्मणोः कारकयोः कर्म उपादानयोः कर्म अधिकरणयोः वा मध्ये क्रोशः इति प्रतिपादनीयम् अत्र. कर्तृकर्मणोः कारकयोः मध्ये क्रोशः इति एकं वाक्यं.
कर्म
उपादानयोः कर्म अधिकरणयोः वा क्रोशः.
परन्तु अस्य वाक्यस्य अर्थः किं महोदय, न अवगतवती. क्रोशः इति किम्
इत्युक्ते, क्रोशः इत्युक्ते तत्र मार्गवाची शब्दः अस्ति खलु, अध्वनशब्दः अस्ति.
सत्यं,
मार्गस्य मापनं करोति क्रोशः, मेशर्मेण्ट्. तर्हि एकस्मिन् पार्श्वे अत्र एवम् अवगन्तव्यम् इति भाति, कर्तृकर्मणोः कारकयोः एकस्मिन् पार्श्वे कर्ता अथवा कर्म, अन्यस्मिन् पार्श्वे अधिकरणम् अथवा उपादानम्. इत्युक्ते कर्तृ उपादानयोः मध्ये अथवा कर्तृ अधिकरणयोः मध्ये अथवा कर्म उपादानयोः मध्ये अथवा कर्म अधिकरणयोः मध्ये यदि अध्वनशब्दः अस्ति तदा इति अर्थः. तर्हि अत्र इहस्तः अयं विश्वासः क्रोशे लक्ष्यं विदधाति इति वाक्यं परिशीलयतु, तस्य अर्थः कः इति.
इहस्तः अयम्, अयमिति कः? कश्चन मनुष्यः. इश्वासः नाम धनुः. क्रोशे लक्ष्यं विद्यति. अस्तु,
अत्र विद्यति इति क्रियापदं, कर्ता कः?
अयम्, ओ अयं धनुः, धनुः अयं धनुः नाम इश्वासः. अयमिति पुरुषः नास्ति, धनुः अस्ति.
हा, तर्हि अयमिति विशेषणम् इश्वासस्य.
हा, इश्वासस्य. आं सत्यम्,
अयं विश्वासः विद्यति. किं विद्यति? लक्ष्यं विद्यति. तर्हि लक्ष्यमिति कर्म,
कर्मपदम्.
अपि च इहस्त, इहस्तः इति कृत्वा सत्यम्, इहस्तः इति इतः इति अर्थः खलु, इहस्तः इति इहे स्थित्वा अत्र स्थित्वा खलु. तर्हि अत्र अपि च लक्ष्यम् अनयोः मध्ये क्रोशं सत्यं. तर्हि अत्र कर्म अधिकरणयोः मध्ये न, अत्र कर्म अधिकरणम् इह इति अधिकरणम् इति वदति.
आम्
सत्यम्,
इह इति अधिकरणं. स्थः इति तु नाम अयम् इत्यस्य एव स्थः इति विशेषणम् इव भवति खलु, अत्रतः इह स्थः.
हा, अत्र अत्र स्थित्वा इति खलु.
आम्,
अत्र स्थित्वा
कर्म अपादान.
विश्वासः इति प्रायः धनुः नास्ति, धनुर्धरः अस्ति. स्टाण्डिङ्ग् हियर् ही विल् हिट् अ मार्क् अट् अ डिस्टेन्स् आफ् वन् क्रोश.
कस्मिन् पुटे सप्तमी
पञ्चम्यौ कारकमध्ये इति सूत्रमस्ति खलु, तत्र अन्तिमवाक्यद्वयं
पेज् 30
पीडिएफ् पेज् 30
महोदय.
हा,
इहस्तः अपि विश्वासस्य विशेषणं भवति खलु इति अहं चिन्तयामि. इहस्तः इति इहस्तः अयं विश्वासः इति
न न, विश्वासः इत्यनेन धनुर्धरः अवगन्तव्यः अस्ति.
इहस्तः तस्य विशेषणं भवति वा?
इहस्तः इत्यनेन इत्यनेन धनुर्धरः उक्तः किम्? अत्र स्थित्वा इहस्तः इत्युक्ते किम्? अत्र स्थित्वा अयं धनुर्धरः
कीदृशविश्वासः इत्युक्ते ह्यस्तः विश्वासः अयं विश्वासः इति अहं चिन्तयामि. यत् कर्ता अस्ति इति अहं चिन्तयामि, कर्तृपदम् अस्ति.
स्थः अस्ति इति अनेन विशेषणमिव गृहस्थः अयं यः अत्र स्थः.
स्तः इति स्तः इत्यस्य कः प्रत्ययः अस्ति तत्र? तादृशं चिन्तनीयं, तदा एव
आगच्छामः.
कल्पद्रुमायां द्रष्टव्यमस्ति. अत्र एस् सि वास्तुपुस्तकमध्ये एवम् अस्य अनुवादः कृतः, स्टाण्डिङ्ग् हियर् हि विल् हिट् अ मार्क् अट् अ डिस्टेन्स् आफ् वन् क्रोश. हियर् क्रोश इस् द इण्टर्वल् बिट्वीन् दि एजेण्ट् एण्ड् दि आब्जेक्ट्. कर्तृकर्मणोः कारकयोः
तदेव इयस्तः इति कर्ता कर्तृपदस्य विशेषणं, कर्तृकर्मणोः
कर्तृकर्मणोः कारकयोः मध्ये स्थ इत्युक्ते स्टेयिङ्ग् अबैडिङ्ग् वाट् आर् हू इस् आर् स्टेस्. तत्र ष्टा क इति कश्चन प्रत्ययः अस्ति, अतः क्लेशः आगतः. अत्र अत्र तप्रत्ययः नास्ति, क इति प्रत्ययः. इहस्तः अयं विश्वासः क्रोशे लक्ष्यं विदधाति इत्यत्र कर्तृकर्मणोः कारकयोः मध्ये अध्वनवाचिशब्दः अस्ति इति कृत्वा अध्वनवाचशब्दस्य
सप्तमी
अत्र सप्तमी. एवं क्रोशात् तत्र इहस्तः अयं विश्वासः क्रोशात् लक्ष्यं विदधाति
पञ्चमी अस्ति.
हा पञ्चमी, किन्तु अत्र उदाहरणं कस्य दत्तमिति चेत् कर्तृकर्मणोः कारकयोः मध्ये एव, कर्म उपादानयोः मध्ये अथवा कर्म अधिकरणयोः मध्ये उदाहरणं न दत्तम्.
एतदेव उदाहरणं नास्ति वा महोदय, कर्म अपादानयोः इत्यस्य कृते?
अत्र अपादानं किम्?
धनुः
अपादानं.
तस्मात् एव
अपादानत्वं अपादानत्वं निरूपणीयं. ध्रुवम् अपाये अपादनम्, अपाये जाते. अत्र कस्य अपायः जायते?
यः धनुष गृह्णाति सः विश्वासः, यत् धनुतः यत् तीरं गच्छति तद् अपादानं न भवति वा? धनुः इति अपादानं न भवति वा?
न, ध्रुवमपाये अपादानं, निरूपयतु.
धनुः इति ध्रुवमेव खलु, तत्रतः एव
किं गच्छति? धनुतः किं गच्छति?
तीरम्.
अत्र तीरमिति कुत्र अस्ति?
नास्ति,
भवेत् खलु.
आम् सत्यं,
वाक्ये भवति चेदेव तत्र अपादानत्वं प्राप्नोति. हा इति कृत्वा अत्र नास्ति इति भाति. अस्तु, अत्र किं करोतु भगिनी, भावबोधिन्याम् अत्र विमर्शः इति दत्तमस्ति.
एकक्षणम् उद्घाटयामि. हा विमर्शः, कालाध्वनोरत्यन्तसंयोगे तथा तदेव अस्ति खलु?
न न,
पुटक्रमाङ्क किम् अस्ति महोदय?
35, PDF 35.
यहाँ कारक शब्द शक्तिमान का प्रतिपादक न होकर शक्ति का प्रतिपादक है, अतः उक्त उदाहरण में शक्ति भेद मानकर मध्यवर्ती का उपपादन करना चाहिए.
तत्तु भिन्न वार्ता, पूर्व पूर्व से उदाहरण उक्तमस्ति. कर्म प्रवचनीय शब्द के अस्त्र उपरी अस्ति
उपरी. तब दो कारकों में मध्य में न होने के एक मिनट.
अध्वा का उदाहरण, इहस्तः अयम् विश्वासः क्रोशे लक्ष्यं विदधा विद्यति क्रोशात् लक्ष्यं विद्यति यः बैट् हुआ बाण् अस्ति खलु यः बैठा हुआ चलने
वाले यहाँ बैठा हुआ बाण चलाने वाला पुरुष एक कोश पर स्थित लक्ष्य को वेद लेता है यहाँ इश्वासह कर्तृ शक्ति तथा लक्ष्यम कर्म शक्ति के मध्य में अथवा लक्ष्यम कर्म और धनु इस अपादान शक्ति में शक्ति के मध्य में अथवा इह अधिकरण शक्ति और लक्ष्यम कर्म शक्ति के मध्य में कोश अधवा है अतः सप्तमी और पंचमी होती है यहाँ संख्यात अनुदेश नहीं है क्योंकि स्वरित प्रतिज्ञा नहीं है ये तो अलग
त्रयमपि अस्ति इत्यत्र उदाहरणं
हाँ
हाँ तर्हि
तदेव पठित्वा अहम् उक्तवती महोदय
अस्तु तर्हि प्रतिपादयतु अन्येषां कृते
अत्र कर्तृकर्मणोः यदि अहं वयं स्वीकुर्मः तर्हि कर्ता अस्ति अत्र इश्वासः कर्म अस्ति लक्ष्यं तयोः मध्ये इति भवति तयोः कारकयोः मध्ये कर्म अपादानयोः इत्यत्र कर्म अस्ति लक्ष्यम् अपादान यत् धनुर्धारी यः अस्ति तस्य हस्ते धनुः अस्ति तद्धनुः अपादानः अस्ति तथा च लक्ष्यम् इति कर्म तयोः मध्ये इति कर्म अधिकरणयोः वा इत्यत्र कर्म कर्म भवति लक्ष्यम् अधिकरणम् अत्र इह इति यः शब्दः तत् अधिकरणम् इति गृहीतं वर्तते तयोः मध्ये नाम एतयोः कारकयोः मध्ये क्रोशः इति अस्ति तादृशं यदि भवति तदा सप्तमी क्रोश नाम मार्गवाचिशब्दस्य पञ्चमी वा सप्तमी भवति इति
समीचीनम् अत्र कः क्लेशः मया कृतः इति चेत् विश्वासः इति पदस्य अर्थः कः विश्वासः साक्षात् अनुवादं करोतु इत्युक्ते अत्र इश्वासः इत्यत्र इषु इति अस्ति खलु इषु
इत्यनेन
इषु इत्युक्ते बाण इषुः एरो तर्हि तादृशमवगन्तव्यं यदि धनुर्धनुर्धरः इति वदामः तत्र न अवबुध्यते अपादानत्वं न द्योतते किन्तु विश्वासः इति तत्र इषु इति पदमस्ति बाणचलने वाला पुरुष सो द वन् हू इस् गोयिङ्ग् टु लीव् दि एरो एण्ड् दि लक्ष्य बिट्वीन् द टु इति अवगच्छामश्चेत् तत्र इदानीम् अपादानत्वं द्योतते एवमेव अत्र इह इति उक्तत्वात् तत्र अधिकरणत्वमपि अपि भवति इति कृत्वा एतदेव एकमेव उदाहरणम् इहस्तः अयं विश्वासः क्रोशे अथवा क्रोशात् लक्ष्यं विद्यति इति एकमेव उदाहरणम् अत्र कर्तृकर्मणोः कारकयोः मध्ये अथवा कर्म उपादानयोः कारकयोः मध्ये अथवा कर्म अधिकरणयोः कारकयोः मध्ये क्रोशः अस्ति इति कृत्वा क्रोशस्य सप्तमी अथवा पञ्चमी तदनन्तरं सङ्ख्यात अनुदेशः न भवति अस्वरितत्वात् इति अस्ति तत्र स्वरविषये अस्ति इति कृत्वा प्रायः त्यजामः
नाम महोदय यत् अद्य भुक्त्वा देवदत्तः द्वहे भुक्ता द्व्यहात् वा भुक्ता इत्यत्र केवलं कर्तुः शक्तिद्वयमध्ये एव
सत्यं
द्वहे इति शब्दः
न अत्र स्वरित इति उक्तं खलु तस्मिन् विषये अहं वदन् अस्मि
अवगतं
अस्तु अस्तु समीचीनं तर्हि सप्तमी पञ्चम्यौ कारकमध्ये इति सूत्रं समापितं तत्र सम्पूर्णसूत्रमस्ति कालाद्वनाभ्यां कारकमध्ये सप्तमी पञ्चमी पञ्चम्यौ अस्ति अत्र इतोपि न अवबुध्यते कारकमध्ये कालाध्वनाभ्यां सप्तमी पञ्चम्यौ इति अस्ति कालाध्वनाभ्याम् इति पञ्चमी द्विवचनं ताभ्यां सप्तमी पञ्चम्यौ भवतः विभक्ति भवतः विभक्ति किं विभक्ति इति किं
द्विवचनं प्रथम
हा दीर्घीकारः खलु अस्तु तर्हि तत्र इतोपि किञ्चित् वक्तव्यं सम्पूर्णसूत्रम् एवमेव पठामश्चेत् तारकमध्ये कालाध्वनाभ्यां सप्तमी पञ्चम्यौ कालाध्वनाभ्यां सप्तमी पञ्चम्यौ भवतः इति तु सत्यं किन्तु यदि कालवाचिशब्दः अध्वनवाचिशब्दः तारकमध्ये अस्ति तर्हि खलु तर्हि एवं कालाध्वनोः तारकमध्ये अत्यन्तसंयोगे कालाध्वनाभ्यां सप्तमी पञ्चम्यौ इति वक्तव्यं खलु
अत्यन्तसंयोगे इति किमर्थं महोदय तत्र निरन्तरता कुत्र अस्ति
कालाध्वनोः तारकमध्ये अत्यन्तसंयोगः
संयोगः इति प्रायः पर्याप्तः अत्यन्तसंयोगः
समीचीनम् अत्र अत्यन्तसंयोगः अपि नास्ति अपवर्गः अपि नास्ति खलु अपवर्गः अपि नास्ति तर्हि कालाध्वनोः कारकमध्ये कालाध्वनाभ्यां सप्तमी पञ्चम्यौ खलु अस्तु तर्हि तादृशं सम्पूर्णसूत्रं लिखामि
कालाध्वनोः कारकमध्ये इति वा महोदय
हा कालाध्वनोः कारकमध्ये यदि कालवाचकशब्दः अथवा अध्ववाचकशब्दः कारकमध्ये वर्तते तदा कालाध्वनाभ्यां सप्तमी पञ्चम्यौ भवतः अस्तु अग्रे गच्छामि धन्यवादः भगिनि अग्रे अग्रिमसूत्रं श्रीराममहोदय पठति किं कर्मप्रवचनीयुक्ते द्वितीया
आम् महोदय कर्मप्रवचनीयुक्ते द्वितीया कर्मप्रवचनीयैः युक्ते द्वितीया विभक्तिः भवति अनुर्लक्षणे शाकल्यस्य संहिता अनुप्रावर्षत् अगस्त्यम् अन्वसिञ्चन् प्रजाः अस्तु अत्र कर्म इदानीं निपातानां कर्मप्रवचनसंज्ञा प्राप्तायाम् अत्र द्वितीयविधानं भवति इति अस्ति कर्मप्रवचनीययुक्ते यः शब्दः युक्तः अस्ति तस्य द्वितीयविधानं भवति इति अस्ति उदाहरणम् अस्ति अनुर्लक्षणे इति सूत्रे अणु इति शब्दस्य कर्मप्रवचनीयसंज्ञा भवति अतः तत्र समीपस्थ लक्षणार्थे तत्र तृतीय हेतुर्थे अस्ति
सत्यं
शाकल्यस्य संहिता अनुप्रावर्षते इदानीं संहिता इति शब्दात् तत्र द्वितीयविधानम् अणुशब्दस्य समीप्यात् समीपे अस्ति इति कृत्वा संहिता
समीपम् इति मा वदतु अत्र युक्तः इत्युक्ते
अणु इति शब्दे
युक्तत्वं नाम किम् अन्वयत्वं
युक्त इति कृत्वा संहिता इति शब्दात् तत्र द्वितीयविधानं शाकलस्य संहिताम् अणु प्रावर्षते एवम् अगस्त्यम् अणुसिञ्चन् प्रजाः अत्र अणु इति शब्दस्य कर्मप्रवचनसंज्ञा अगस्त्यम् अगस्त्यशब्दात् तत्र द्वितीयविधानम् अस्ति सिञ्चन् प्रजाः अनुसिञ्चन् अत्र अतः अत्र अनुर्लक्षणे इति एव भवति वा इति प्रजाः
अगस्त्यम् अन्वसिञ्चन् प्रजाः
अगस्त्यम् इति प्रायः नक्षत्रं भवितुम् अर्हति
किं नक्षत्रम्
अगस्त्यम् अगस्त्यनक्षत्रम् इति अस्ति नक्षत्रम् अथवा कालः किमपि अस्ति वा अगस्त्यम् इति मुनिः अस्ति वा अगस्त्यम् इत्युक्ते
अगस्त्यम् अनु असिञ्चत् प्रजाः असिञ्चत् इति क्रियापदं प्रजाः अगस्त्यम् आगस्त्यं क्षम्यतां तत्र आगस्त्यम् इति अस्ति
आगस्त्यम् अत्र अगस्त्यम् इति लिखितम् अस्ति पुस्तके काचित् अगस्त्यम् इति प्रायः आगस्त्यं
बोधिन्याम् आगस्त्यम् इति लिखितमस्ति आगस्त्यम् अनु
मुद्रणम्
किं निमित्तमिति न जाने
न्यासे
भवतु
तत्रापि इत्युक्ते कर्मप्रवचने संज्ञा यस्य अस्ति तस्य योज तस्य प्रभावेन अगस्त्य इति अगस्त्य अथवा आगस्त्य इति शब्दस्य द्वितीयविधानं
सत्यम् आगस्त्यम् अनु आगस्त्यम् इति कश्चन निमित्तमस्ति तमनु अनुसिञ्च अन्वसिञ्चन् प्रजाः इति कृत्वा आगस्त्य अथवा आगस्त्यशब्दस्य द्वितीया अनेन सूत्रेण कर्मप्रवचनीयुक्ते द्वितीया इति सामान्यसूत्रं तर्हि येषां तत्र बहूनां शब्दानां कर्मप्रवचनीयसंज्ञा भिन्नार्थे भवन्ति इति अस्माभिः पूर्वम् अवगतम् संज्ञाविधायकसूत्रे सूत्रेषु किन्तु येषां कर्मप्रवचनीयसंज्ञा भवति तेषाम् अन्वयः ये यस्य शब्देन भवति तस्य शब्दस्य द्वितीया अनेन सूत्रेण अस्तु अग्रे महोदय अग्रिमसूत्रं भवानेव पठतु यस्मादधिकं
यस्मादधिकं यश्च च ईश्वरवचनं तत्र सप्तमी इति अस्ति कर्मप्रवचनीययुक्तः युक्ते इति वर्तते यस्मादधिकं यस्य च ईश्वरवचनं कर्मप्रवचनीययुक्तैः प्रवचनीयैः युक्ते तत्र सप्तमी विभक्ति भवति उप खाद्यां द्रोणः खाद्यां द्रोणः उप निष्के कार्षापणम् कार्षापणं यस्य च ईश्वरवचनं कर्मप्रवचनीयुक् यस्मादधिकं यस्य च ईश्वरं तत्र सप्तमी इत्यत्र कर्मप्रवचनी युक्तः शब्दस्य तत्र सप्तमी अथवा सप्तमीविधानम् अनेन सूत्रेण कथमिति चेत् यस्मादधिकं यस्य च ईश्वरं कर्मप्रवचनीयैः युक्तैः तत्र सप्तमी उपकार्यं द्रोणः अत्र उप इति कर्मप्रवचनीय संज्ञ उपोधिके च इति सूत्रेण उपोधिके च इति सूत्रेण तत्र उपोधिके च इति सूत्रेण अत्र किम् अस्ति उदाहरणम् उपकार्यं कार्याम् इति अस्ति कार्याशब्दस्य सप्तमीविधानम् उप इति शब्दस्य प्रभावेन उप इति कर्मप्रचसंज्ञा युक्तः शब्दः इति कृत्वा तत्र कार्यशब्दात् सप्तमीविधानं यतोहि कार्यम् इति द्रोणात् अधिकम् अस्ति द्रोण इति माण कश्चन माणः माणम् अस्ति तस्मादधिकमस्ति कार्य इति मानम् इति कृत्वा उपकार्यां द्रोणः तत्र अधिकं यत् अस्ति तस्य सप्तमीविधानम्
तादृशं नास्ति खलु उपकार्यां द्रोणः अत्र खारी द्रोणः द्रोणः एव अधिकः यतोहि तत्र यस्मात् अधिकं खार्यायाः अधिकं द्रोणः त तर्हि यस्मात् इत्युक्ते खारी शब्दः तस्य सप्तमी.
अस्तु भगिनि, धन्यवादः. अनन्तरम् उपनिष्के
अत्र महोदय इदानीम् उपकार्यां द्रोणः इत्यत्र यथा हेमा भगिन्या उक्तं तथैव अवगन्तव्यम्. तर्हि अत्र कस्य भागस्य सूत्रस्य कस्य भागेन अत्र कार्याशब्दस्य सप्तमी प्राप्ता?
यस्मात् इति, यस्मात् इति शब्दात्. यस्मात्
केवलं यस्मात् इति न वदतु, सम्पूर्णसूत्रं वदतु.
यस्मात् अधिकम् इति यः भागः अस्ति तस्य प्रभावः.
सम्पूर्णसूत्रं, सम्पूर्णसूत्रं.
यस्मात् अधिकं ईश्वरं तत्र सप्तमी इति अस्ति.
अस्तु अस्तु, भवतु वदतु.
अत्र यस्मात् अधिकम् इति यत्पदमस्ति तेन प्रभावेन तत्र कार्यशब्दस्य सप्तमी अस्ति.
अत्र कर्मप्रवचने युक्ते इति अपि योजनीयं भवता, तदा एव सम्पूर्णसूत्रं भवति खलु.
हा, सम्पूर्ण कर्मप्रवचने युक्ते सप्तमी.
सम्पूर्णसूत्रं पुनः वदतु.
सम्पूर्णसूत्रम् अस्तु. यस्मादधिकं यस्य च ईश्वरवचनं
न अत्र यस्य च इदानीम् उपकार्यां द्रोणः इत्यत्र यस्य च ईश्वरवचनम् इत्यस्य प्रसक्तिरेव नास्ति खलु.
सत्यं, यस्मादधिकं कर्मप्रवचने युक्ते सप्तमी, तत्र सप्तमी तत्र इति अस्ति, तत्र योजनीयं तत्र इति शब्दस्य यत्र यत्र यस्मात् अधिकं यत्र यस्मात् अधिकम् इति अस्ति तत्र कर्मप्रचनयुक्ते सप्तमी. यस्मादधिकं कर्मसूचीनियुक्ते यस्मात् अधिकं, यस्मादधिकं किम् इति, यस्य च
किञ्चित् सहायं करोति
न? अहमेवं चिन्तयामि, यस्मात् अधिकं यस्य तस्मात् सप्तमी इति, तत्र सप्तमी इत्युक्ते तस्मात् तस्य एव सप्तमी भवति. यस्मात् इति
सम्पूर्णसूत्रं वदतु.
यस्मात् अधिकं यस्य कर्मप्रवचनीययुक्ते तस्मात् सप्तमी भवति, तादृशं वक्तुं शक्नुमः.
यस्मात् अधिकं यस्य इत्यस्य अर्थः कः
इत्युक्ते अत्र उदाहरणं यद् पश्यामः,
यः इति भवेत् खलु, यस्य इति कथं?
द्रोणस्य अपेक्षया कारी यस्मात् अधिकं, हा इत्युक्ते कार्याः अधिकं द्रोणः भवति, अतः तस्मात् इत्युक्ते कार्यायाः सप्तमी इति.
हा, तर्हि अत्र पश्यतु कथम् उक्तवती इति. यस्मात् द्रोण्याः अधिकं, क्षम्यतां, कार्याः अधिकं द्रोणः इति उक्तवती, न तु द्रोणस्य. यस्मादधिकं यः इति एव भवेत्, न तु यस्य. अतः यस्य च ईश्वरवचनम् इति भिन्न इति द्वितीयः भागः. यस्मादधिकं तत्र सप्तमी, यस्य च ईश्वरवचनं तत्र सप्तमी. इदानीं कर्मप्रवचनीयुक्ते इति योजयित्वा परिशीलनीयम्.
अस्तु, तर्हि यस्मात् अधिकं यः कर्मप्रवचनीययुक्ते
उदाहरणं स्वीकृत्य अत्र उदाहरणं स्वीकृत्य एव वदतु. कार्याः अधिकं द्रोणः खलु.
हरि ओं, श्रूयते वा?
हा, इदानीं श्रूयते.
भग्नः जातः अत्र.
हा, कार्याः अधिकं द्रोणः. इति कृत्वा कस्य सप्तमी विधानं?
यस्मात् अधिकम्, अतः कार्यायाः अधिकं द्रोणः, अतः कार्यशब्दस्य सप्तमी. तर्हि सूत्र सम्पूर्णसूत्रं कथं वक्तव्यम्? यस्मात् कर्मप्रवचनीययुक्ते यस्मात् अधिकम्.
अस्तु, कर्मप्रवचनीयसंज्ञा केन सूत्रेण भवति? उप इत्यस्य.
तत्र उपोदिके इति महोदयेन उक्तं खलु?
हा, उपोधिके च, तत्र सूत्रं पश्येम. उपोधिके च, अधिके हीने च उपः कर्मप्रवचनीयाः. उपोधिके च इति सूत्रेण, तत्र चकारेण हीने इत्यस्य अनुवर्तनं भवति. अधिके हीने च उपः कर्मप्रवचनीयाः इति संज्ञा. तर्हि अत्र अधिके, इदानीम् अत्र उपकार्यं कार्यां द्रोणः इत्यत्र कस्य शब्दस्य कर्मप्रवचनीयसंज्ञा भवति? हेमा भगिनी न श्रूयते. भग्नं जातम् इति भाति. किमपि न श्रूयते. अस्तु, भव्या भगिनि.
आम् महोदय.
हा, तर्हि अत्र उपकार्यां द्रोणः इति उदाहरणम्.
आम् महोदय. अत्र तु वयं पूर्वं पठितवन्तः उपोदिके चेति सूत्रं. तत्र तु उप इति प्रयोगः इति शब्दस्य किम् अधिके हीने च तत्र प्रयोगः भवति. यदा प्रयोगः भवति तत्र तु कर्मप्रवचनीयसंज्ञा भवति इति पूर्वं पठितवन्तः. तदेव अस्ति. उदाहरणार्थम् उपहरिं सुराः इति पठितवन्तः. तदेव अत्र लिखितम् अस्ति. तर्हि यस्मात् अधिकं यस्य च ईश्वरवचनं तत्र सप्तमी इति उक्तमस्ति. तर्हि अधिकं
भगिनि क्षम्यताम्, अत्र उपोदिके च इति सूत्रम् इतोपि किञ्चित् उपहरिं सुराः इति उदाहरणं स्वीकृत्य किञ्चित् प्रतिपादयतु.
आम् महोदय. अत्र तु उपहरिं सुराः इति अस्ति. तत्र किम् अस्ति, अत्र तु सुराणाम् अपेक्षया हरिः तु अधिकः अस्ति इत्यस्मिन् अर्थे अस्ति तत्र वाक्यम् उप इति.
तर्हि उप इति शब्दम् अस्मिन् वाक्ये, उपहरिं सुराः इत्यस्मिन् वाक्ये उप इति शब्दं हीनार्थे प्रयुक्तं वा अधिकार्थे प्रयुक्तं वा?
अधिकार्थे प्रयुक्तम् अस्ति.
इति वा?
क्षम्यतां, हीनार्थे. क्षम्यतां महोदय, हीनार्थे.
अस्तु, तर्हि अत्र एवं प्रयत्नं करोतु, उप इत्यस्मिन् स्थाने हीन इति शब्दं प्रयुज्य वदतु.
हरेः अपेक्षया सुराः हीनाः इति भवति.
हा, सत्यं. तर्हि उप इति शब्देन अत्र सुराः एव हीनाः खलु?
आम् महोदय.
तर्हि उप इति शब्देन सुराः एव उक्ताः, हीनत्वं द्योतयते खलु?
आम् महोदय, आम्. तर्हि अधिकम् इति न द्योते, तर्हि एतत् सम्यक् नास्ति अस्माकं उदाहरणं सम्यक् नास्ति अस्माकं
न भवतु अत्र इदानीम् अन्यदपि उदाहरणमस्ति उपपरार्धे हरेः गुणः इति
आम् आम् उपपरार्धे हरेः गुणः हरेः गुणाः अधिकाः अधिकः वर्तन्ते इति इत्यस्मिन् अर्थे वर्तते
न तद् यथा हरि अपेक्षया सुराः हीनाः इति उक्तवती उपहरिं सुराः इति वाक्यस्य एवम् अवगन्तव्यम् अत्र उप इति पदं प्रयोगं न कृत्वा अकृत्वा अत्र हीन इति पदं प्रयुक्तं यथा तथा उपपरार्धे हरेर्गुणः इत्यत्र अधिकशब्दं प्रयुज्य वदतु
परार्धेः अपेक्षया हरेः गुणाः अधिकाः
परार्धेः इति किमर्थम् अकारान्तपुल्लिङ्गः अस्ति खलु
परार्धानाम् अपेक्षया हरेः गुणाः अधिकाः
परार्धस्य अपेक्षया
एकवचने अस्ति आम् आम् परार्धस्य अपेक्षया हरेः गुणाः अधिकाः
हा परार्धस्य अपेक्षया हरेः गुणाः अधिकाः तर्हि अत्रापि उप इति शब्दः अधिकार्थे प्रयुक्तम्
आम् तत्र
इति शब्दः
सप्तमी अत्र यत्र अधिकार्थे प्रयुक्तं तत्र तु सप्तमी साधु भवति सप्तमी
तस्य सप्तमी भवति
किम् अस्ति यस्य यत्र वयं सामान्यतया षष्ठी भवति स्म परा तद् प्रबाद्य सप्तमी भवति
कस्य इति अत्र अपवादः कस्य इति मया न पृष्टं कस्य सप्तमी सम्भवति हीनस्य वा अधिकस्य वा
हीनस्य सप्तमी भवति
हा इति अवगन्तव्यं हीनस्य सप्तमी भवति उपहरिं सुराः इत्यत्र अधिकस्य द्वितीया भवति खलु उपहरिं सुराः इत्यत्र अधिकत्वं हरे हरौ वर्तते इति कृत्वा अधिकस्य द्वितीया अस्तु तर्हि एवम् अवगन्तव्यम् अधिकस्य द्वितीया भवति कर्मप्रवचनीययुक्ते हीनस्य सप्तमी भवति कर्मप्रवचनीययुक्ते
तर्हि उप इति शब्दः एव उभयत्र प्रयुक्तं किन्तु विभक्तिविधानं दृष्ट्वा वक्तुं शक्यते अधिकः वा इति अवगन्तुं शक्यते सामान्यतया सामान्य उप इति शब्दः एव आयाति उभयत्र किन्तु सामान्यकर्मप्रवचनीययुक्ते द्वितीया इति यत्र हीनाः भवन्ति तत्र तु क्षम्यतां यत्र अधिकः भवति तत्र तु किं भवति कर्मप्रवचनीयुक्ते द्वितीया इति सूत्रेण द्वितीयविभक्तिः भवति किन्तु विपरीतत्वेन आगच्छति खलु यद्यपि अत्र उपपरार्धेः इति यद्यपि यस्मादधिकम् इति दत्तमस्ति इत्युक्ते यस्मात् अधिकम् इत्युक्ते यद् हीनम् अस्ति अधिकम् इति सूत्रं किन्तु यद् हीनम् अस्ति तस्य सप्तमी विभक्तिप्रयोगः भवति
हा यस्मादधिकं तस्य हीनस्य यस्मादधिकं तदेव उक्तं कर्मप्रवचनीयशब्देन तर्हि तदा तस्य हीनस्य तस्य अपेक्षया यः हीनः अस्ति तस्य सप्तमी हा तर्हि इदानीं सम्पूर्णसूत्रं वदतु
सम्पूर्णसूत्रं वा
यस्य च ईश्वरवचनमिति त्यजतु तत्र हा अस्तु
कर्मप्रवचनीययुक्ते यस्मात् अधिकं कर्मप्रवचनीययुक्ते यस्मात् अधिकं तस्य सप्तमी इति भवति खलु अनभिहिते कर्मप्रवचनीययुक्ते अनभिहिते यस्मात्
अनभिहिते इति वक्तव्यं वा इति अनन्तरं चिन्तयेम् तस्मात् पूर्वं अत्र केवलं
युक्ते अन्त्य अनुवृत्तिः भवति कर्मप्रवचनीययुक्ते यस्मात् अधिकं तत्र सप्तमी इति भवति
किञ्चित् अस्तु समीचीनं, किन्तु इतोपि किञ्चित् अवगन्तव्यमस्ति. प्रायः एतदेव एतादृशमेव वक्तुं शक्यते. कर्मप्रवचने युक्ते यस्मात् अधिकम् इत्यत्र इदानीं कर्मप्रवचनीयशब्दः अधिकार्थे प्रयुक्तं वा हीनार्थे प्रयुक्तं वा?
कर्मप्रवचन हीनार्थे प्रयुक्तम्.
हा इति अवगन्तव्यं. कर्म हीने कर्मप्रवचनीययुक्ते हीनार्थे कर्मप्रवचनीयशब्दः उप इति कर्मप्रवचनीयशब्दः प्रयुक्तः अस्ति चेत् अत्र उप इति न वक्तव्यं. यं कमपि कर्मप्रवचनीयसंज्ञकपदं यदि हीनार्थे प्रयुक्ते तदा यस्मात् अधिकं तस्य हीनस्य सप्तमी विभक्तिविधानं भवति. तर्हि किम्
अत्र उपोदिके च इति अस्ति खलु, तत्र अधिकार्थे प्रयुक्ते यः हीनः अस्ति तस्य सप्तमी इति अहं चिन्तयामि. उप इति कर्मप्रवचनसंज्ञकः अस्ति, तस्य प्रयोगः यदा अधिकार्थे अस्ति तदा यः हीनः अस्ति तस्य सप्तमी इति अहं चिन्तयामि.
मया तत्र दोहीने इति उक्तम्, अधिके इति प्रायः वक्तव्यं खलु. इत्युक्ते उप इति द्रोणस्य विशेषणम्. उप इत्यनेन द्रोणः उक्तः अस्मिन् उदाहरणे. अधिके अस्तु, हा अधिके कर्मप्रवचनीय संज्ञा जाते कर्मप्रवचनीययुक्त कर्मप्रवचनीययुक्ते इत्युक्ते कर्मप्रवचनीयसंज्ञा यदि अधिकार्थे जायते कश्चन शब्दस्य तदा यस्मात् अधिकं जातम्
यस्मात्
अधिकम् इत्यर्थम् अधिकम् उक्तम् अस्ति वा?
अस्तु भव्या भगिनी भवती एव वदतु. उपकार्यां द्रोणः इत्यत्र उप इति शब्दस्य अधिक इति अर्थः वा हीन इति अर्थः वा?
तद् कारी द्रोण अहं किमपि न जानामि महोदय. तत्र तु अहं वयं हरेः गुणः इत्यपि वदतु.
हा हा वदतु. अस्तु इदानीम् अहं अन्यद् उदाहरणं सामान्य उदाहरणम् अहं वदामि. उपपदार्थे हरेः गुणः इति वाक्यम् अत्र उप इति पदम् अधिकार्थे प्रयुक्तं वा?
हरेः गुणः उक्ताः सन्ति इति अधिकम् उक्तम् अस्ति इति.
अस्तु तर्हि अत्र उपपदार्थे हरेः गुणः इत्यत्र उप इति पदं त्यजतु, अधिकम् इति पदं प्रयुज्य वदतु वाक्यम्.
हरेः गुणः अधिकाः परार्थस्य
अपेक्षया खलु. तर्हि उप इत्यनेन अधिकः उक्तः, अधिकार्थे उप इति पदं प्रयुक्तं, तदा हीनस्य सप्तमी भवति. अतः परार्थे एवम् अत्रापि हा एवम् अत्रापि उपकार्यां द्रोणः इत्यत्र कार्यशब्दस्य सप्तमी अस्ति इति कृत्वा तत्रैव हीनत्वमस्ति. उप इति अधिकार्थे प्रयुक्तम्, अवगच्छति खलु? हा तर्हि सम्पूर्णसूत्रम् एवं भवेत्. कर्मप्रवचनीयसंज्ञा यदि अधिकार्थे, अत्र वाक्यरूपेण वदामि तदनन्तरं सूत्रं कथं भवेत् इति चिन्तयामः, कर्मप्रवचनीयसंज्ञा यदि अधिकार्थे जायते तदा तादृशकर्मप्रवचनीययुक्ते यस्मात् अधिकं तस्य सप्तमी इति. तर्हि अधिके कर्मप्रवचनीयसंज्ञे सति अधिके कर्मप्रवचनीये कर्मप्रवचनीयसंज्ञे सति कर्मप्रवचनीय तादृशकर्मप्रवचनीययुक्ते तर्हि अधिके कर्मप्रवचनीयसंज्ञे सति इत्यत्र साक्षात् अधिके कर्मप्रवचनीययुक्ते इति वद इति वक्तुं शक्यते इति भाति. कर्मप्रवचनीययुक्ते यस्मात् अधिकम् यस्मादधिकं तत्र सप्तमी
तस्य कीलस्य सप्तमी इति
हा यस्मादधिकं तत्र इत्युक्ते तस्य एव खलु यस्मात् अधिकं तस्य अत्र तत्र इति दत्तमस्ति इति कृत्वा तत्र इति मया प्रयुक्तं तत्र सप्तमी इत्युक्ते हीनस्य सप्तमी अस्तु उत्तमम् अधिके कर्मप्रवचनीययुक्ते यस्मादधिकं तत्र सप्तमी उपकार्यां द्रोणः इत्यत्र हीनत्वं कार्यामस्ति इति कृत्वा तस्य सप्तमी उपनिष्केकार्षापणम् इत्यत्र निष्कस्य हीनत्वं निष्के हीनत्वमस्ति इति कृत्वा इत्युक्ते कार्षापणम् इति अधिकमस्ति तस्मात् निष्कात् अधिकमस्ति इति कृत्वा निष्कशब्दस्य कर्मप्रवचनीययुक्ते सप्तमी अस्तु समीचीनं. तर्हि हेमा भगिनी इदानीं प्रयत्नं करोति वा वक्तुं हेमा भगिनी
श्रूयते वा महोदय? यस्य च ईश्वरवचनम् इति स्वस्वामि स्वस्वामिनोर्द्वयोरपि पर्यायेण सप्तमीविभक्तिर्भवति. अधि ब्रह्मदत्ते पञ्चालाः अधि पञ्चालेषु ब्रह्मदत्त इति द्वितीय अपवादः योगः. तर्हि अत्र सूत्रस्य द्वितीयभागः वर्तते यस्य च ईश्वरवचनं तत्र सप्तमीति. तर्हि अत्र यस्य च ईश्वरवचनम् इति कथनेन तत्र स्व अपि च स्वामिनः स्वस्य अपि च स्वामिनः द्वयोरपि ग्रहणं भवति अपि च तयोः सप्तमी विभक्तिः भवति इति अवगन्तव्यम्. उदाहरणं स्वीकुर्मः. अधि ब्रह्मदत्ते पञ्चालाः अधि इति कर्मप्रवचनीययुक्ते तत्र
तत्र अधि इति अधि इति शब्दस्य कस्मिन् अर्थे केन सूत्रेण कर्मप्रवचनीयसंज्ञा भवति? अधिरीश्वरे
हा अधिरीश्वरे हा ईश्वरत्वं तत्र स्वामी स्वामित्वम् आसीत् इति कृत्वा अधि इति अधिरीश्वरेतः स्वीकृतम्. ब्रह्मदत्ते पञ्चालाः तर्हि ब्रह्मदत्त इति पदस्य सप्तमी जातम्. अत्र ब्रह्मदत्तः तस्मिन् तत्र पञ्चालाः इत्युक्ते पाञ्चालदेशस्य जनाः इति प्रजाः इति स्वीकुर्मश्चेत् तत्र ब्रह्मदत्तः स्वामी भवति इति भवति वा? तर्हि तत्र तस्य सप्तमी भवति इति. स्वस्वामिनोः द्वयोरपि. अत्र स्वामित्वेन ईश्वरत्वेन स्वीकुर्मश्चेत् तत्र ब्रह्मदत्त इति पदस्य सप्तमी भवति. परन्तु अग्रिमम् अस्ति अधि पञ्चालेषु ब्रह्मदत्त.
अत्र एकनिमिषम्, अधिब्रह्मदत्ते पञ्चालाः इत्यत्र स्वस्वामिनोः द्वयोः अपि इति उक्तं खलु, तर्हि अत्र स्वस्य सप्तमी वा स्वामिनः सप्तमी वा?
तदेव द्वितीयमपि पठामि चेत् इतोपि सम्यक् अवगमनं भवति. अधि पञ्चालेषु ब्रह्मदत्त इति द्वितीयमस्ति. अत्र
अत्र क्लेशः नास्ति भगिनि, अत्र एकः एव स्वामी भवति खलु,
स्वामी ब्रह्मदत्तः इति.
अधि हा ब्रह्मदत्तः एव उभयत्र स्वामी. उभयत्र ब्रह्मदत्तः उदाहरणद्वयेपि ब्रह्मदत्तः एव स्वामी.
एकत्र स्वामित्वं वर्तते, अन्यत्र स्व इत्यर्थे भवति इति.
न न, अत्र उभयत्र ब्रह्मदत्तस्य एव स्वामित्वं, किन्तु एकस्मिन् उदाहरणे स्वामिनः सप्तमी, अन्यस्मिन् उदाहरणे स्वस्य सप्तमी.
हा, तर्हि स्वस्य सप्तमी अत्र अधिब्रह्मदत्ते पञ्चालाः.
न, ब्रह्मदत्त इति स्वामी खलु.
एकनिमिषम्, अधिपञ्चालेषु ब्रह्मदत्त.
स्वामिनोः द्वयोः अपि, यस्य च ईश्वरवचनम् इति, स्वस्वामिनोः द्वयोः अपि.
स्वामिनः इत्युक्ते पञ्चालदेशस्य प्रजाः इति वा अत्र?
इदानीं स्वामी कः, स्वं कः इति वदतु.
स्वं तु ब्रह्मदत्तः, स एव स्वामी.
ब्रह्मदत्तः स्व अस्ति, तर्हि पञ्चालाः स्वामी इति भवन्ति खलु, इति भवन्ति खलु.
परन्तु ब्रह्मदत्तः एव स्वामी एव.
अतः अधिब्रह्मदत्ते पाञ्चालाः इत्यत्र स्वामिनः सप्तमी, अधिपाञ्चालेषु ब्रह्मदत्तः इत्यत्र स्वस्य सप्तमी.
कदाचित् स्वस्य भवति, कदाचित् स्वामिनः भवति इति. तर्हि प्रथमम्
अधियोगे भवति भगिनि, अधियोगे कस्य सम्बन्धः अस्ति तस्य सप्तमी भवति. स्व भवति वा स्वामी भवति वा तत्र भेदः अस्ति.
तदेव
अधि
इत्यनेन एव ब्रह्म.
नमस्ते महोदय, क्षम्यताम्. किमस्ति महोदय?
स्वामी कः, स्व कः? अत्र स्वस्वामिनोः द्वयोः अपि पर्यायेण सप्तमी विभक्तिः भवति इति उक्तं.
आं महोदय,
अधिब्रह्मदत्ते पञ्चालाः इत्यत्र तस्य सप्तमी.
तत्र ब्रह्मदत्तः स्वामी अस्ति महोदय, पाञ्चालाः इति देशः अस्ति. ब्रह्मदत्तः स्वामी अस्ति, पाञ्चालाः देशाः. अतः तत्र अधियोगे ब्रह्मदत्तः सप्तमी भवति. द्वितीयं तु अधि पाञ्चालेषु.
मम प्रश्नः कः, स्वस्य अधिब्रह्मदत्ते पञ्चालाः इत्यस्मिन् उदाहरणे स्वस्य सप्तमी, कस्य सप्तमी इति प्रश्नः. तस्य एकमेव
स्वामी, स्वामी महोदय, स्वामी अस्ति तत्र. ब्रह्मदत्तः स्वामी अस्ति,
तर्हि स्वामिनः सप्तमी खलु.
समीचीनम्, आम् महोदय.
हा एवम्, अधिपञ्चालेषु ब्रह्मदत्तः इत्यत्र कस्य सप्तमी?
तत्र तु स्व इत्युक्ते तत्र देशः पाञ्चालेषु इति उक्तं. तत्र स्वस्य सप्तमी भवति
इति वक्तव्यं तावदेव.
हा, स्वस्य महोदय,
तदा एव मया तथैव मया उक्तम्.
आं महोदय,
आगच्छति खलु.
हरि ओं, श्रूयते वा?
इदानीं
श्रूयते वा?
अत्र प्रथमं उदाहरणे ब्रह्मदत्ते पञ्चालः इति अत्र अस्ति, तत्र ब्रह्मदत्तः स्वामी वर्तते पञ्चालदेशस्य वा पञ्चालदेशजनानाम् इति, तर्हि तत्र स्वामित्वेन तत्र ब्रह्मदत्तस्य सप्तमी भवति. द्वितीय उदाहरणे
एकनिमिषम्, अत्र इतोपि एकः प्रश्नः, अधिब्रह्मदत्ते पञ्चालाः इत्यत्र अधिशब्दः कस्मिन् अर्थे प्रयुक्तम्?
ईश्वरत्वे, तस्मिन् ईश्वरत्वं वर्तते ब्रह्मदत्ते इति, स एव स्वामी इति, अधिरीश्वरे इति उक्तवान् खलु.
चिन्तयित्वा वदतु. अत्र पश्यतु, पूर्वस्मिन् उदाहरणे उपकार्यां द्रोणः इत्यत्र उप इति शब्दः कस्मिन् अर्थे प्रयुक्तम्?
अधिकार्थे.
हा, तर्हि अधिकार्थे यः उक्तः अस्ति सः प्रथमायाम् अस्ति खलु. उप इत्यनेन अत्र अधिकार्थे प्रयुक्तः अस्ति उप. एवम् अधिब्रह्मदत्ते पञ्चालाः इत्यत्र अधिशब्दः कस्मिन् अर्थे प्रयुक्तम्?
स्वस्य वा स्वामिनः वा इति प्रश्नः वा?
हा, इदानीं समीचीनं.
ब्रह्मदत्त,
वदतु वदतु वदतु. हा,
तर्हि ब्रह्मदत्तः
पञ्चालाः इत्यत्र अधि इति शब्दः कस्मिन् अर्थे प्रयुक्तम्?
अधि इति स्वामिनः अर्थे, यतोहि पञ्चालदेशस्य स्वामी ब्रह्मदत्तः इति कृत्वा.
न, तर्हि अधि इति शब्देन ब्रह्मदत्तः उक्तः इति भवती स्वीकरोति. अधिब्रह्मदत्ते पञ्चालाः इत्यत्र अधि इति शब्दम् अप्रयुज्य अन्यत् पदम् अत्र स्व अथवा स्वामि इति पदं प्रयुज्य एक एतद् वाक्यं रचयतु.
स्वे ब्रह्मदत्ते पञ्चालः इति भवति वा?
इति न भवति खलु.
ब्रह्मदत्तपञ्चालानां स्वामी महोदय, अधियोगे द्वयो अर्थम् आगच्छति. एक सप्तमी विधानं यत्र अस्ति, स्वामी अपि स्व अपि द्वयोः
अत्र यथा पूर्वमुक्तम् उपकार्यां द्रोणः इत्यत्र उप इति पदम् अधिकार्थे प्रयुक्तम् इति अवगतम्. तर्हि अधिकम् इति पदं प्रयुज्य सरला भगिनी भवती एव वदतु.
अत्र यदि अधिक अर्थे वयं वदामः, तत्र भवति अधि पञ्चालेषु ब्रह्मदत्तः.
न, क्षम्यताम्, उपकार्यां द्रोणः इति उदाहरणमस्ति खलु.
आम्,
तत्र उप इति शब्दः अधिकार्थे प्रयुक्तं खलु.
आम्, कार्यां अपेक्षा.
तर्हि अत्र एतद् वाक्यम् उप इति पदम् अप्रयुज्य अधिक इति पदं प्रयुज्य वक्तव्यम्.
कार्याद्रोण इति. अस्तु, तत्र भवति अधिद्रोणे खादी.
न, अधि इति न वदतु, उपकार्यां द्रोणः इति उदाहरणमेव अहं पृच्छामि. अधि इति त्यजतु.
अस्तु,
उपकार्यां द्रोणः इत्यत्र उप इति शब्दस्य अधिकार्थे प्रयुक्तमस्ति. उप इति शब्दः अधिकार्थे प्रयुक्तमस्ति. तर्हि उप इति शब्दस्य स्थाने अधिक इति शब्दं प्रयुज्य वदतु.
कार्यायाः अपेक्षया द्रोणः अधिकः.
सत्यं खलु, द्रोणः अधिकः. तर्हि उप इति शब्देन द्रोणः एव उक्तः, द्रोणः एव अधिकः खलु. इति कृत्वा उप इति शब्दः अधिकार्थे यथा प्रयुक्तं, तथा अधिब्रह्मदत्ते पञ्चालाः इत्यत्र अधि इति शब्दः पञ्चाल अधि इति शब्देन पञ्चालाः एव उक्ताः इति अवगच्छतु. तादृशं वदतु, इत्युक्ते वाक्यम् अधि इति शब्दम् अप्रयुज्य अन्यत् शब्दं प्रयुज्य वदामश्चेत् तत्र पञ्चालाः इति तथैव तिष्ठे, यथा द्रोणः इति तथैव तिष्ठत् अतिष्ठत् तत्त्वत् पञ्चालाः इति तथैव तिष्ठे. एव भगिनि वदतु
पुनः प्रश्नः एकवारं वदतु.
उपकार्यां द्रोणः इत्यत्र उप इति शब्दः
तदवगतम्
अधिकारं खलु.
द्वितीयं किम् उक्तवान्?
न सत्यं, तत्र किञ्चित् प्रतिपादयित्वा वदामि. उपकार्यां द्रोणः इत्यत्र उपशब्दः अधिकार्थे प्रयुक्तं, तर्हि तत्र अधिकशब्दं प्रयुज्य वदामश्चेत् कार्यायाः अपेक्षया द्रोणः अधिकः इति उक्तं खलु. तत्र द्रोणशब्दस्य परिवर्तनं न जातम्. प्रथमाविभक्त्यामेव अस्ति खलु.
महोदय, भवतः आशयम् अवगच्छामि. पञ्चालाः ब्रह्मदत्तस्य अपेक्षाः हीनाः इति भवति. अति ब्रह्मदत्ते पञ्चालाः,
हा, तर्हि अत्र हीनः इति पदं न प्रयुक्तव्यं. किमर्थमत्र स्वामिनोः खलु,
पञ्चालाः ब्रह्मदत्तस्य अपेक्षाः स्वाहा ब्रह्मदत्त स्वामी इति अस्ति.
अत्र स्वामी इति पदं मा प्रयुज्य, अत्र अधि इति शब्दस्य अधि इति शब्दः कस्मिन् अर्थे प्रयुक्तम् इति अवगन्तव्यम्. उभयमपि क्लेशः भवति.
पाञ्चालाः ब्रह्मदत्तस्य अधीनाः
इति
अत्र शीलमहोदय, स्वम् इति पदं प्रयोक्तव्यम् अथवा स्वामी इति पदं प्रयोक्तव्यम्?
ब्रह्मदत्त पाञ्चालानाम् आचार्य अस्तु
स्वामी
बहुवचनं किं महोदय?
अस्तु, स्वाहा इति स्वीकुर्मः इदानीं, न जाने
स्वं स्वं स्वा ब्रह्म पाञ्चालः ब्रह्मदत्तस्य स्वं
पञ्चालाः ब्रह्मदत्तस्य अधीना वा स्वाहा पञ्चालाः ब्रह्मदत्तस्य स्वाहा,
हा सत्यं, हा समीचीनं. तर्हि ब्रह्मदत्तस्य पाञ्चालाः स्वम् अथवा स्वाहा यत्किमपि भवतु, स्व इति शब्दस्य बहुवचनं यदस्ति तदेव. ब्रह्मदत्तस्य पाञ्चालाः स्वम् इति अस्ति चेत् तर्हि तत्र अधि इति शब्दः कस्मिन् अर्थे प्रयुक्तम्?
स्वामी अर्थे
न, इदानीमेव भवती उक्तवती खलु
पाञ्चालाः ब्रह्मदत्तस्य स्वं. सो ब्रह्मदत्त
हा वदतु,
स्वामी अर्थे भवति न ब्रह्मदत्त?
न ब्रह्मदत्तः तु उभयत्र स्वामी, किन्तु अधिशब्दः स्व अर्थे प्रयुक्तं वा स्वाम्यर्थे प्रयुक्तं वा इति निर्णयः करणीयः. अस्तु, अहं किञ्चित् प्रतिपादयामि. अस्तु, तत्र अधिब्रह्मदत्ते पञ्चालाः इत्यत्र अधिशब्दः स्वार्थे प्रयुक्तं वा स्वाम्यर्थे प्रयुक्तं वा च इति निर्णेतुम् अत्र वाक्यम् अधि इति शब्दम् अप्रयुज्य स्व अथवा स्वामी इति पदं प्रयुज्य वक्तव्यम्. अपि च पाञ्चालाः इति पदस्य विभक्तिपरिवर्तनं न कार्यम् इति कृत्वा ब्रह्मदत्तस्य पञ्चालाः किं, स्वामी वा स्वं वा इति चेत् स्वम् इति एव भवति. अतः अधिशब्दः अस्मिन् वाक्ये स्वार्थे प्रयुक्तमस्ति, भृत्यार्थे प्रयुक्तमस्ति इति कृत्वा ब्रह्मदत्तस्य सप्तमी. अतः एव उक्तं स्वस्वामिनोः द्वयोः अपि पर्यायेण सप्तमी इति कृत्वा अधिब्रह्मदत्ते पञ्चालाः इत्यत्र अधिशब्दः स्वार्थे प्रयुक्तमस्ति. अधिपञ्चालेषु ब्रह्मदत्तः इत्यत्र अधि इति शब्दम् अप्रयुज्य वदामि चेत् पञ्चालेषु पञ्चालानां ब्रह्मदत्तः स्वामी इति भवति वाक्यं. तर्हि अत्र अधि इति शब्दः कस्मिन् अर्थे प्रयुक्तम् इति चेत् स्वाम्यर्थे प्रयुक्तम्. अतः एवं लिखितमस्ति, स्वस्वामिनोः द्वयोः अपि पर्यायेण इत्यत्र प्रथमम् अधिब्रह्मदत्ते पञ्चालाः इति किमर्थं स्थापितं? तदुदाहरणं प्रथमं किं स्थापितम् इति चेत् अधि इति शब्दस्य अर्थः अस्ति अत्र स्वम् इति.
महोदय, अत्र भावबोधिन्यां विपरीतत्वेन दत्तमस्ति. अत्र पश्यन्ती अस्मि, अधिब्रह्मदत्ते पञ्चालाः, पञ्चाल् ब्रह्मदत्त के अधीन है, यह स्वामी में सप्तमी है. अधि पञ्चालेषु देवदत्तः, देवदत्त पञ्चालों का स्वामी है, यहाँ स्ववाचक से सप्तमी है. तर्हि प्रथमं तत्र स्वामी में सप्तमी, द्वितीयं स्ववाचक से सप्तमी इति उक्तम्.
सत्यं, किन्तु अधि इति शब्दः कस्मिन् अर्थे प्रयुक्तम् इति प्रश्नः. अधि इति शब्दः कस्मिन् अर्थे प्रयुक्तम्? इत्यत्र अधिब्रह्मदत्ते पञ्चालाः इत्यत्र अधिशब्दः स्वार्थे प्रयुक्तम्. अधिपञ्चालेषु ब्रह्मदत्तः इत्यत्र अधिशब्दः स्वाम्यर्थे प्रयुक्तम्.
इत्युक्ते अधियोगे इति अस्ति इति कृत्वा तत्र सप्तमी कुत्र इति दृष्ट्वा वदति.
अस्तु, अत्र इदानीं भवती एव वदतु अत्र सम्पूर्णसूत्रं किम् इति वदतु, तदा अवबोधः जायते. यथा अधिके कर्मप्रविचिनियुक्ते यस्मादधिकं तत्र सप्तमी, कीनस्य सप्तमी इति यथा उक्तं तथैव.
कर्मप्रवचनीययुक्ते
किन्तु कस्मिन् अर्थे इति वक्तव्यं प्रथमं.
हा, तत्र तु स्वस्य अपि च स्वामिनः द्वयोः अर्थे तत्र सप्तमी भवति खलु.
हा, तर्हि कथं वक्तव्यम्? अधिके इति सप्तम्यां वक्तव्यम्, अतः स्व इत्यस्य सप्तमी किं?
स्वे.
अत्र कोऽपि पश्यति वा स्वम् इति? इदानीं निर्णयं कुर्मः.
हा, किं द्रष्टव्यम् अत्र?
अत्र स्वम् इति कीदृशपदम् इति, स्वम् इति अव्ययं वा अथवा स्व इति पदमस्ति?
स्वमति धनाख्यायाम् इत्यनेन कदाचित् कुत्रचित् सर्वनामसंज्ञकः भवति वा सामान्यशब्दः भवति.
हा, किन्तु अव्ययं नास्ति खलु?
अव्ययं न,
सर्वनामशब्दः अस्ति महोदय. चतुर्थ स्व इति
सर्वम् आगच्छति खलु, तर्हि
तर्हि अव्ययं नास्ति चेत् तत्र इदानीं, हा इदानीं पश्यन्नस्मि, स्व इति स्वः, स्वा, स्वम् इति त्रिषु लिङ्गेषु भवति.
स्वमज्ञाति धनाख्यायं तत्र स्व इति अस्ति महोदय, तस्मिन् सर्वनामसंज्ञा अस्ति.
इदानीं प्रश्नः सर्वनाम अस्ति वा न वा इति न, तस्य लिङ्गपरिवर्तनं त्रिषु लिङ्गेषु एतस्य रूपं भवति वा अथवा अव्ययं वा इति प्रश्नः.
ओ अस्तु,
तर्हि तत्र उत्तरमस्ति स्व इति अकारान्तः प्रातिपदिकमस्ति, त्रिषु लिङ्गेषु भवति, अतः स्वे. अस्तु, हेमा भगिनी पूरयतु. स्वे,
हा, तर्हि अत्र स्वस्य अर्थे इत्युक्ते स्वे अपि च स्वामिनः अर्थे द्वयमपि भवति. तर्हि अधिके इति पदम् आवश्यकं वा? नास्ति खलु, कर्मप्रवचनीययुक्ते स्वे च स्वे इत्युक्ते सप्तमी जातं तत्र, स्वस्य च स्वामिनः अर्थे.
हा, तर्हि स्वे
तत्र सप्तमी,
ईश्वरे च स्वे, ईश्वरे च कर्मप्रविचिनीययुक्ते.
ईश्वर इत्युक्ते तत्र स्वामी इति स्वीकरोति वा?
सत्यम्, अधिरीश्वरे इति एव सूत्रमासीत् खलु. अधिरीश्वरे इति सूत्रमासीत्, तर्हि ईश्वरार्थे, ईश्वरार्थे अथवा ईश्वरस्य अपेक्षया यः स्वमस्ति तस्मिन्नर्थे अथवा स्वार्थे ईश्वरार्थे च अधि इति शब्दस्य कर्मप्रवचनीयसंज्ञा भवति अधिरीश्वरे इति एकेन सूत्रेण. अतः स्वे ईश्वरे च कर्मप्रवचनीययुक्ते. हा इदानीम् अग्रे
अत्र स्वस्वामिनोः द्वयोः अपि सप्तमी भवति इति.
अत्र इदानीं सूत्रस्थपदं स्वे ईश्वरे च कर्मप्रवचनीययुक्ते यस्य च ईश्वरवचनं खलु.
यस्य च ईश्वर
यस्य ईश्वरवचनं च इति त्यजेम, अत्र विभक्तं खलु. यस्य ईश्वरवचनं तत्र सप्तमी इत्युक्ते स्वस्य
स्वामिनः स्वस्वामिनोः
ईश्वरस्य अथवा स्वस्य सप्तमी.
किं लिखितवान् इदानीं स्वे ईश्वरे च
कर्मप्रवचनीययुक्ते ईश्वरवचनं तत्र सप्तमी इत्युक्ते ईश्वरस्य अथवा स्वस्य सप्तमी. तर्हि अधिब्रह्मदत्ते पञ्चालाः इत्यत्र ईश्वरस्य सप्तमी. तर्हि अधि इत्यनेन कः उक्तः इति चेत् स्व उक्तः. अधिपञ्चालेषु ब्रह्मदत्तः इत्यत्र पञ्चालस्य सप्तमी इति कृत्वा अधि इति शब्देन ईश्वरः उक्तः. उभयत्र द्वितीया अपवादः.
तत्तु समीचीनं.
सर्वत्र द्वितीया अपवादः. अस्तु, सर्वैः अवगतं किं? तर्हि
मम सन्देहः अस्ति महोदय.
तत्त्वपि किञ्चित् भ्रमः वर्तते.
वदतु.
अत्र स्वे ईश्वरे च कर्मपरचनयुक्ते यस्य ईश्वरवचनं तत्र सप्तमी. ईश्वर यस्य ईश्वरवचनम् इत्युक्ते यः स्वामी अस्ति तत्रैव सप्तमी भवति इति अर्थः भवति वा?
इत्युक्ते एकमेव इति वदति वा?
तत्र अर्थबोध सम्यक् अहं न अवगच्छामि. यस्य ईश्वरवचनं तत्र सप्तमी इति चेत् तत्र यः ईश्वरः स्वामी अस्ति तस्य एव
यस्य ईश्वरवचनम् इति उक्तं खलु. ईश्वरवचनम् अथवा यः ईश्वरः तस्य एव वचनम्. अधिरीश्वरे इति सूत्रे अस्माभिः पठितं स्वस्वामिनोः द्वयोः अपि कथम् अधिरीश्वरे इत्यत्र ईश्वरे अर्थे एव उक्तं. तर्हि स्वस्यापि अधिशब्दस्य प्रयोगः भवति चेत् कर्मप्रवचनसंज्ञा कथम् इति चेत् एतदेव सूत्रं ज्ञापकम् इति पठितं तत्र. यस्मादधिकं यस्य ईश्वरवचनं इति कृत्वा
महोदय अहं पठामि. तत् विद्याभगिनी पाठितवती अस्मान् समासवर्गे. अत्र करपत्रे लिखितमस्ति अधि ब्रह्मदत्ते पञ्चालाः. पञ्चालाः ब्रह्मदत्तस्य अधिकारे अस्ति. ब्रह्मदत्तस्वामी पञ्चालाः स्वाहा. अधि इत्यस्य कर्मवचनीय प्रवचनीयसंज्ञा भवति अधि ईश्वरे इति सूत्रेण, यतोहि स्वस्वामीभावसम्बन्ध ज्ञायते. अधि इति शब्दस्य योगे स्वामिनः ब्रह्मदत्तस्य सप्तमी भवति. यस्मात् अधिकं यस्य च ईश्वरवचनं तत्र सप्तमी इति सूत्रेण. द्वितीय उदाहरणमस्ति अधि पञ्चालेषु ब्रह्मदत्त. अस्मिन् उदाहरणे अधि इत्यस्य कर्मप्रवचनीयसंज्ञा भवति अधि ईश्वरे इति सूत्रेण, यतोहि स्वस्वामीभावसम्बन्ध ज्ञायते. अधि इति शब्दस्य योगे पञ्चालः इति स्ववाचकात् सप्तमी भवति. यस्मात् अधिकं यस्य च ईश्वरवचनं तत्र सप्तमी इति सूत्रेण पञ्चालेभ्य एव ब्रह्मदत्तस्य स्वामित्वं वर्तते.
अत्र क्लेशः एव नास्ति भगिनि. ब्रह्मदत्तस्य उभयत्र ईश्वरत्वं वर्तते इत्यत्र क्लेशः नास्ति. प्रश्नः कः इति चेत् अधि इति शब्दः कस्मिन् अर्थे प्रयुक्तम् इति तत्र निगमनं कृतम्। अधिब्रह्मदत्ते पञ्चालाः इत्यत्र अधिशब्दः स्वार्थे प्रयुक्तम्, स्वार्थे प्रयुक्तम्। अधिपञ्चालेषु ब्रह्मदत्तः इत्यत्र अधिशब्दः ईश्वरार्थे
स्वामित्वे अस्तु,
ईश्वरार्थे प्रयुक्तम् इति निगमनम्। अपि च अनेन चिन्तनेन किं जातम् इति चेत्, कर्मप्रवचनीयसंज्ञशब्देन यः उक्तः अस्ति तत् सर्वदा प्रथमायामेव भवति।
अस्तु,
अस्य परिशीलनं कुर्मः। पूर्वस्मिन् उदाहरणे अत्र पश्यतु, शाकल्यस्य संहितामनु प्रावर्षत्। तर्हि सरला भगिनी भवती एव वदतु, शाकल्यस्य संहितामनु प्रावर्षत् इत्यत्र अनुशब्दः कस्मिन् अर्थे प्रयुक्तम्?
शाकल्यस्य अनु
उपरि उदाहरणं पश्यति खलु पूर्वस्मिन् सूत्रे, इत्यत्र अनुशब्देन अनुशब्दः कस्मिन् अर्थे प्रयुक्तमस्ति, अनुशब्देन कः उक्तः अस्ति?
अनुशब्देन सहिता उक्तमस्ति साधु
नास्ति
न
अनुशब्दः अस्मिन् अनुशब्दस्य कर्मप्रवचनीयसंज्ञा कस्मिन् अर्थे भवति?
अनन्तरं टु फालो रैट् अनन्तरम् इति युक्ते
न अनुलक्षणे इति सूत्रम्
अनुलक्षणे साधु
तर्हि अत्र अनुर्लक्षणे लक्षणार्थे अनु इति पदं प्रयुक्तम् अस्मिन् वाक्ये, तर्हि लक्षणं किम् अस्मिन् वाक्ये?
लक्षणं वर्ष प्रावर्षत् क्रिया
सत्यं। तर्हि अनु इति लक्षणार्थे प्रयुक्तं, तर्हि लक्षणं किम् इति चेत् प्रावर्षणमेव लक्षणं खलु इति कृत्वा मम निगमनम् अत्र सामान्यबोधः इत्युक्ते अत्र ऐ एम् गिविङ्ग् यु अ शार्ट्कट् कस्मिन् अर्थे प्रयुक्तम् इति निर्णेतुं प्रथमाविभक्त्यां किमस्ति तस्य अर्थमेव बोधयति कर्मप्रवचनीयसंज्ञा। उपकार्यां द्रोणः इत्यत्र उप इति शब्दः कस्मिन् अर्थे प्रयुक्तम् इति चेत् अधिकार्थे प्रयुक्तम्। किमर्थं द्रोणे एव द्रोण इति द्रोणः इति प्रथमायां यत्पदमस्ति तस्मिन् अधिकत्वं वर्तते खलु, उपनिष्के कार्शापणम् इत्यत्रापि एवं। तर्हि प्रथमायां किमस्ति तदेव कर्मप्रवचनीयसंज्ञकेन उक्तः अस्ति इति कृत्वा समीचीनं भवति। तर्हि अधिब्रह्मदत्ते पञ्चालाः इत्यत्र पञ्चालाः इति प्रथमायामस्ति, पञ्चालेषु किमस्ति, स्वामित्वमस्ति वा स्वमस्ति वा स्वत्वमस्ति वा इति चेत् स्वत्वमेव अस्ति। कृत्वा अधि इति शब्दः स्वत्वार्थे प्रयुक्तमस्ति।
अस्तु,
तर्हि अधिपञ्चालेषु ब्रह्मदत्तः इत्यत्र प्रथमायां किमस्ति, ब्रह्मदत्तः। ब्रह्मदत्ते किमस्ति, स्वामित्वमस्ति, अतः अधिशब्दः कस्मिन् अर्थे प्रयुक्तम् इति चेत् स्वाम्यर्थे स्वामित्वार्थे प्रयुक्तमस्ति।
अस्तु, स्पष्टं जातम्
नो चेत् क्लेशः भवति।
अस्मिन् वाक्ये शाकल्यस्य संहिताम् अनुप्रावर्षत् अत्र प्रथमायां कः किं पदमस्ति अत्र?
नो, प्रावर्षत् इति क्रियापदमस्ति किन्तु प्रावर्षणम् इति अपि स्थापयितुं शक्यते खलु,
इत्युक्ते वर्षा। तर्हि इदानीं वर्षा इति लक्षणम् अस्ति, न वर्षा इति लक्ष्यम् अस्ति, अपि च
अक्षर साकल्येन संहिता पठिता,
तर्हि तदेव तत्र लक्षणम् अस्ति, तेन लक्ष्यं प्राप्तं। लक्ष्यमिति वर्षा, लक्षणमिति संहिता। लक्षणेन तत्र लक्ष्यं साधयितुं शक्नुमः खलु? इत्युक्ते तत्र लक्षणमेव हेतुः खलु, अत्र हेतुः कः तर्हि?
तत्र पठनमेव, ग्रन्थपठनमेव.
तर्हि संहिता एव तत्र लक्षणं वा हेतुः, अपि च लक्ष्यमस्ति वर्षा खलु.
लक्षणे शाकल्यस्य संहिता मनु वर्षस्य हेतुः संहिता पठनम्.
वर्षायाः हेतुः शाकल्यस्य संहिता पठनं.
हेतुः लक्षणम् इति अत्र हेतु इति अर्थः. प्रावर्षत् तर्हि अत्र यदा यद् मया उक्तं तत् न सङ्गच्छते खलु? इत्युक्ते ऐ एम् ट्रैङ्ग् टु कम् अप् वित् अ शार्ट्कट्.
I got it, but here I thought you said opposite.
शाकल्यस्य संहितापठनमेव हेतुः. अस्तु पश्यम् इतोपि एकं सूत्रं
सर्वत्र तादृशं भवति वा इति
तदा पश्यम् सर्वत्र तादृशं भवति वा इति पश्यम् अस्तु का पठति वंशी भगिनी पठति वा?
श्रूयते वा? श्रूयते वा? क्षम्यताम्, आं म्यूट् मध्ये आसम्. अस्तु, पञ्चम्य अपाङ् परिभिः इति सूत्रमस्ति. अप
आङ्ग्विच्छेदं कृत्वा पठतु.
पञ्चमी अपाङ् परिभिः. पञ्चम्यपाङ् परिभिः. अस्तु,
पञ्चमी अपाङ् पञ्चमी.
आं महोदय, अपाङ् परिभिः पञ्चमी. समीचीनम्. त्रयः शब्दाः. अप आङ् परि इत्येतैः कर्मप्रवचनीयः नीयः योगे कर्मप्रवचनीयैः योगे पञ्चमी विभक्तिर्भवति. अप त्रिगर्तेभ्यः वृष्टो देवः. आ पाटलीपुत्राद् वृष्टो
त्रिगर्तेभ्यः वृष्टः देवः.
तत्र प्रथमवाक्ये उक्तमस्ति अप आङ् परि इति शब्दत्रयम् अस्ति. इत्येतैः कर्मप्रवचनीयैः योगे
तत्सर्वं त्यजतु इदानीम्. अप त्रिगर्तेभ्यः वृष्टः देवः इत्यत्र अप इत्यस्य कर्मप्रवचनीयस्य कस्मिन् अर्थे केन सूत्रेण?
अप इति केन सूत्रेण? एकनिमिषं महोदय. अपपरिवर्जने वा? न जानामि. अपपरिवर्जने इति अर्थे अस्ति वा?
अत्र वर्जनार्थे अस्ति वा?
नास्ति नास्ति. अतः एव एकनिमिषं महोदय,
विस्मृतवचने
अप इति अस्ति न तत्र?
क्षम्यताम्, अप इति.
आम् आम्, अप अस्ति. अपपरिबहिरञ्चव पञ्चम्याः न, तत्तु अपपरिवर्जने एव वयं पठितव. अपवर्गे तृतीया वा? न, तत् नास्ति. किमस्ति महोदय? अपपरिवर्जने एव कर्मप्रवचनीयसंज्ञा भवति इति वयं पठितवन्तः.
तदेव
तदेव तदेव अस्ति महोदय. तस्मिन्नपि तदेव मया उक्तम्
इति पदं वर्जनार्थे प्रयुक्तमस्ति.
अस्तु,
अस्तु, तर्हि इदानीं वदतु.
अप त्रिगर्तेभ्यः वृष्टः देवः इत्युक्ते तत्र वर्जनार्थे इत्युक्ते त्रिगर्तः देशः वर्ज त्यक्त्वा तत्र देवः वृष्टः अभवत् इति उक्तं. देवः वृष्टः देवः आकर्षिप्रत्येभ्यः त्रिगर्तदेशं त्यक्त्वा सर्वत्र वृष्टिः अभवत् वा? तत्र देवः वृष्टः किमर्थम् उक्तम् इति.
देवः वृष्टिः कृतः वृष्टः
तदेव न तदेव न तादृशमेव न तत्र त्रिगर्तं वर्जयित्वा त्रिगर्तदेशः वर्जयित्वा देवः वृष्टि कृतः इति देवेन वृष्टः कृतः इति वक्तुं शक्यते वा?
पुनः
श्रूयते अप त्रिगर्तेभ्यः इति अस्ति. अप इति अप योगे
अप इति पदं वर्जनार्थे प्रयुक्तं, तर्हि अप इति पदं त्यक्त्वा वर्जनम् इति पदं प्रयुज्य वदतु एतद् वाक्यम्.
अस्तु अस्तु त्रिगर्तं वर्जयित्वा देवः वृष्टि करोति वा? त्रिगर्तं वर्जयित्वा देवः वृष्टि करोति वा? समीचीनं वा महोदय?
समीचीनं खलु, तदेव अर्थः.
अत्र देवः देवः वृष्टः इति कर्तरिप्रयोगः खलु, तर्हि इक्तप्रयोगः अत्र केन सूत्रेण इक्तप्रयोगः जायते?
अत्र एकमेव सूत्रमस्ति, तप्रयोगः अत्र गत्यर्थ अकर्मक श्लीशिङ्
स्था तत् स्मरामि, परन्तु अत्र तस्मात् कुतः सङ्गच्छते इति
तदनन्तरं चिन्तयामः. इदानीम् इत्यत्र निश्चेतुम् इष्टवान्. अत्र वृष्टः इति देवः इति यथे यद् मया उक्तं, प्रथमायां यत् पदमस्ति तस्यैव उल्लेखः क्रियते कर्मप्रवचने संज्ञकशब्देन इति यद् मया चिन्तितं, तस्य परिशीलनं कुर्वन्नस्मि.
ओ अस्तु, हा हा हा.
अपत्रिगर्तेभ्यः वृष्टः देवः, त्रिगर्तं त्रिगर्तान् इति त्रिगर्तेभ्यः इति बहुवचने अस्ति खलु,
त्रिगर्तेभ्यः. आम् आं महोदय, तत्र बहुवचने अस्ति त्रिगर्तान् त्रिगर्तान् त्यक्त्वा.
हा, त्रिगर्तान् त्यक्त्वा देवः वृष्टः
वृष्टः देवः वृष्टः तत्र कर्तरिप्रयोगे अस्ति न? तत्र तु
किमर्थं कर्तरिप्रयोगस्य विषये चिन्तयति? इदानीं
देवः वृष्टः
अप इति शब्दस्य विषये अस्माभिः चिन्तनीयम्.
आं महोदय, तत्र अपयोगेन तत्र अप
कस्य वर्जनं कृतम्? अप इति शब्दः वर्जनार्थे प्रयुक्तम् अपपरिवर्जने इति सूत्रेण.
आम् महोदय,
कस्य वर्जनं कृतं?
त्रिगर्तान् इति वर्ज त्रिगर्तान् देशान् वर्जयित्वा महोदय.
हा, तर्हि वृष्टः देवः इत्यत्र प्रथमायां यदस्ति तत् अप इति शब्देन उक्तं खलु.
तत्र देवः न, परन्तु कस्य भवति महोदय अपाशब्देन? वृष्टः देवः अस्ति, वृष्टः तु क्रियापदमस्ति, देवः इति भवति वा? कथं प्रथमाविभक्त्यार्थे
न वर्जनार्थे इति यदा योजितं तर्हि त्रिगर्तमेव तत्र निर्देशः खलु.
न महोदयेन उक्तं तत्र प्रथमाविभक्त्याम् अस्ति,
अत्र न सङ्गच्छते अत्र.
हा, तदेव तदेव.
अस्तु, एकनिमिषम् अत्र किं कुर्मः, निमिषद्वये समापयामि. अपपरि अत्र काशिकायां कथं लिखितमस्ति इति पश्यन्नस्मि. अपपरिवर्जने इत्यत्र अपपरि शब्दौ वर्जने द्योत्ये कर्मप्रवचने संज्ञौ भवतः, प्रकृतेन सम्बन्धिना कस्यचिद् अनभिसम्बन्धः वर्जनम्. अप त्रिकर्तेभ्यः वृष्टः देवः, प्रकृतेन सम्बन्धिना कस्यचित् अनभिसम्बन्धः वर्जनम्. वर्जने इतिकम् ओदनं परिषिञ्चति, अत्र हस्त तु परिषिञ्चति इत्यत्र षत्वनिवारणार्थं दत्तमस्ति. अपपरिशब्दौ वर्जने द्योत्ये त्रिगर्तादेः अपत्रिगर्तेभ्यः न अत्र न्यासे अपि इतोपि किमपि न लिखितम्. कर्मप्रवचनीयसंज्ञायाः अपव अभावात् उपसर्गसंज्ञा एव भवति. तर्हि अत्र अपत्रिकर्तेभ्यः वृष्टः देवः इत्यत्र अप इति शब्देन कः उक्तः?
तत्र वर्जनार्थे अस्ति न महोदय, कः उक्तः इति भवति वा?
नो, वर्जनं वर्जनं कस्य? त्रिगर्तस्य एव वर्जनम् अथवा त्रिगर्तानामेव वर्जनम् इति तु सत्यं.
समीचीनं, सत्यं.
कथम् अवगन्तव्यम् इति तत्र कर्मप्रवचनीयस्य किञ्चित् क्लेशः अस्ति. अस्तु, पश्येम अग्रिमे वर्गे इतोपि किञ्चित् चिन्तनं कुर्मः. एवं परिशीलनीयमस्ति इत्युक्ते अत्र यथा पूर्वस्मिन् उपकार्यां द्रोणः इत्यत्र परिशीलितम्, अधिब्रह्मदत्ते पञ्चालः इत्यत्र परिशीलितं, तद्वत् सर्वत्र भवति वा न वा इति चिन्तनीयम्.
आं महोदय, सर्वत्र भवति वा न जाने.
इत्युक्ते अत्र यद्यपि अपपरिवर्जने इति उक्तम्, अत्र पश्यतु वर्जने इति किम्? ओदनं परिषिञ्चति इत्यत्र शत्वनिवारणार्थम् एतत् सूत्रं वा अथवा वर्जनार्थे विधानं वा इति द्रष्टव्यं. पश्येम, समयः जातः, अत्र स्थगयेम. अग्रिमे वर्गे इतोपि किञ्चित् चिन्तनं, अहमपि चिन्तयामि, सर्वैः चिन्तयितुम् अर्हति एतादृशम्. इत्युक्ते अत्र वाक्यं दृष्ट्वा, नो चेत् सर्वदा अस्माकं भ्रमः जायते खलु कथम् अवगन्तव्यम् इति, कस्मिन् अर्थे प्रयुक्तम् इति, तदर्थम् अहं चिन्तयन् अस्मि. अस्तु, सर्वेभ्यः नमस्कारः, धन्यवादः.